वदतु भगिनि.
ॐ वाघर्थाविव सम्प्रक्तौ वाघर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. ॐ ॐ एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ॐ ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः.
धन्यवादः भगिनि.
धन्यवादः भगिनि.
So today, did we say we would do something special or just continue with Abhyasa Pustaka?
3.1 Bhagini.
Ketki Bhagini, Dev Utni Ekadashi comes in November, like I said, Kartik month. God Vishnu wakes up after sleeping for 4 months on Kshir Sagar.
Okay.
So that's because I remember it comes in November after Diwali.
Gitanjali Bhagini, I think FCC has stopped giving that when the recording has started or no. So I do not hear it. I hope you have begun it. That's all.
No, I can't have it, Bhagini. I think I started. Stop pe aagya na, aagya. Okay. So, kaunsa 3.2? कि 3.1 संख्या हो गया ना.
3.1 भगिनी संख्या करने का है.
अच्छा संख्या अभी नहीं हुआ. अस्तु 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 किं पठामः. कविता भगिनी भवती एव आरम्भं करोतु भगिनी. 3.1 पुट संख्या किं
15 दट्स हिंदी.
15 तु न संस्कृत भाषायां
पञ्चदश.
पञ्चदश उत्तम.
पञ्चदश
संख्याः इति पदस्य विषये किमपि वदतु. पदपरिचयः
इति बहुवचनं. नौ ऐ विल् गिव् यू द सारी बहुवचन
बहुवचन
संख्याः
कीदृशपदं लिङ्गं किम्.
Yes, referring to the online guru. Sankhyaha. So, ye anga hai. Isko main... Meko typing mein time lagega.
No, no. You simply type in English. Sankhya. Sanskrit guru mein sankhya. Very fast it will go.
So, it is coming na juda hua to kha. And kha juda hua to ya.
यही तो है संख्या. क्योंकि see, ये जो संस्कृत गुरु इज नॉट ऑलवेज क्योंकि टाइपिंग में मुश्किल करता है ये. सो दे हैव मेड इट कन्वीनियंट फॉर एवरीबडी. लेकिन जो संस्कृत है उसमें हम लोग कौन सा वाला अनुनासिक अनुनासिक बोले तो जो ये सारे अनुनासिक वर्ण हैं. कौन सा अनुनासिक वर्ण कहाँ पे जुड़ेगा इसका कैसे पता चलता. नियम क्या है कोपी बदतु. कौन सा वाला कहाँ पे लगेगा. नियम क्या है इसका. मैं सिखा चुकी हूँ बट हम लोग बात कर चुके हैं. वयम चर्चितवंत पूर्व में वा
जो भी व्यंजन है अगर वो व्यंजन ये अनुनासिका के बाद आएंगे तो वो अनुनासिका का इस्तेमाल होता है.
उत्तम
नहीं तो नहीं तो वो बिंदु लगता है
नहीं तो बिंदु नहीं नहीं तो बिंदु इज नॉट जस्ट एन ऑप्शन रैंडम नहीं लग सकता है
रैंडम नहीं होता है मगर
हाँ
कवर्ग में
कवर्ग
में न आएगा चवर्ग में न्या आएगा ऐसे
कौन सा वाला वर्ण देखना होता है अनुनासिक के बाद वाला जो वर्ण है जैसे संख्या हाँ. में खकार है खकार खकार कौन सा वर्ण कौन सा वर्ग है का वर्ग का ख ग घ ङ ये का वर्ग है इसीलिए इसमें का वर्ग का अनुनासिक लगेगा संख्या क्यों लगेगा क्योंकि सबसे स्वाभाविक हमारे मुंह के लिए हम लोग के उच्चारण स्थान के लिए वही लगेगा किसी को सिखाना नहीं पड़ता एस ओ एन जी एक अंग्रेजी का शब्द है आंग्ल भाषायाम सॉन्ग इति वदति सॉन्ग किंतु एस ओ एन जी में कौन सा अनुनासिक कौन सा है अंग्रेजी भाषा में एन है ओनली वन इज देयर एम इज देयर एन इज देयर बट इफ आई से नॉट 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 में जो आपके उच्चारण का स्थान कहाँ है एन का उच्चारण कैसे कर रहा है जीभ जब ऊपर छूती है न लेकिन जब हम सॉन्ग बोलते हैं तो जीभ वहीं पे छू रही है क्या नहीं सॉन्ग तो वो पीछे से गले से निकल रहा है क्योंकि ये स्वाभाविक स्वर है किसी को सिखाना नहीं पड़ता अगर आपका णकार में से ण वर्ग में से होगा चुकते ट वर्ग में से होगा तो वो ऑटोमेटिकली कंठ कंठ में नकार जीभ से और दंत के पीछे से नहीं निकलता न कंठ वो पीछे से ही निकलता है मूर्धा से ही णकार निकलेगा ऑटोमेटिक निकलेगा इसीलिए जो स्वर जो व्यंजन अनुनासिक के बाद होता है अनुनासिक वर्णस्य परम अस्ति तदेव निमित्तम अस्ति निमित्तम इत्युक्ते किम निमित्तम इत्युक्ते दैट बिकम्स द रीजन दैट बिकम्स द कॉज दैट बिकम्स द रीजन टू डू एनीथिंग अत्र निमित्तम किम खकार निमित्तम खकार किम आदेशः वदती क्या आदेश देता है ख ये जो ख है ये क्या आदेश देता है खकार इति वदती पूर्वस्मिन् अनुनासिक क वर्गस्य भवतु मेरे से पहले जो अनुनासिक है मेरे से जुड़ा हुआ साक्षात साक्षात माने क्या जुड़ा हुआ उसमें दोनों में कोई बीच में मध्यम मध्य में कुछ नहीं आएगा साक्षात ख के साथ जो अनुनासिक उससे पहले जुड़ा है वो क वर्ग का ही हो ये वो आदेश देता है संख्या उत्तमम उत्तमम लिंगम किम कविता भगिनी पदस्य लिंगम किम
स्त्रीलिंग पदस्य
स्त्रीलिंग कीदृश स्त्रीलिंग
संख्या टाइप किया स्पोकन संस्कृत में डाला तो उसने कहा कि एफ यानी कि फीमेल एफ और न्यूमरल
दीर्घ आकारांत
दीर्घ आकारांत संख्या दीर्घ आकारांत स्त्रीलिंग पदम अस्ति वदतु भगिनी
दीर्घ आकारांतः स्त्रीलिंग पद अस्ति
पदम प्रथम विभक्तम स्त्रीलिंगम पदम अस्ति पदम इत्युक्ते किम नपुंसकलिंगम नपुंसकलिंगम पदम पदम एकम नपुंसकलिंग पदम अत्र तु आकार लिंगम स्त्रीलिंगम इति एकम विशेषण अस्ति किसका विशेषण कस्य विशेषण पदस्य विशेषण यदि पदम वयम वदामः तदनन्तरं लिंगम लिंगम पदम स्त्रीलिंगम पदम स्त्रीलिङ्गः शब्दः शब्दः तु पुंलिङ्ग् अस्ति पदमेव पुंलिङ्ग् अस्ति यदि शब्दः विशेष्य अस्ति तदनन्तरं विशेषण अपि पुंलिङ्ग् अस्ति चेत् स्त्रीलिङ्गः शब्दः किन्तु स्त्रीलिङ्गं पदम् इति वदामः भगिनि
तो इफ आई एम सेइंग स्त्रीलिङ्गं पदं तो फिर आकारान्तः का क्या होगा चेंज
आकार नो आकारान्त स्त्रीलिङ्गं पदम्
ओके सो आकारान्त डस नॉट टेक म इट विल बी आकारान्त एंड व्हेन आई एम सेइंग विद शब्दः
योजयामः भगिनी आकारान्त स्त्रीलिङ्ग एकमेव पद वदामः ए आकारान्त स्त्रीलिङ्गं पदम् आप जोड़ के बोलेंगे तो आपको वो वैसे करके अलग नहीं बोलना पड़ेगा लेकिन अंत इत्युक्ते किम कीदृश पदम
आई विल
टेल यू अंत कीदृश पदम पश्यतु
अंत
पुंलिङ्ग् अपि च नपुंसकलिङ्ग अपि च अन्तः तु एकम् अव्ययपदम् किन्तु अव्ययपदं तु इन् अण्ड् इन्सैड् तत्तु अस्य विषय भिन्न अस्ति अत्र तु एण्ड् एव न आकारान्तः अपि तु समीचीनम् आकारान्तम् अपि समीचीनम् द्वे अपि समीचीनम् अत्र तु आकारान्तं स्त्रीलिङ्गं पदम् आकारान्तः स्त्रीलिङ्गः शब्दः अवगतं वा
सङ्ख्याः इति पदम् आकारान्तं स्त्रीलिङ्गं पदम् अस्ति प्रथमाविभक्ति बहुवचनरूपं सङ्ख्यायाः
न सङ्ख्याः भगिनि याया तु द्वे
सोरि सङ्ख्याः सो दो विसर्ग को कैसे प्रोनौन्स् करेंगे
सङ्ख्याः
सङ्ख्याः
त्रीणि रूपाणि वदतु भगिनि एक प्रथमाविभक्तिरूपाणि वदतु
सो ऐम् लुकिङ्ग् एट् शब्दं मञ्जरी प्रिण्टेड् पी डी एफ् इस् पेज् नम्बर् 21 इट् सेस् प्रथमाविभक्ति रमा रमे रमाः सो संख्या विल् बी रमाः रमाः संख्या संख्ये संख्याः
उत्तमं तदेव संख्या संख्ये संख्याः महेश महोदय द्वितीय विभक्ति वदतु
संख्यां संख्ये संख्याः
केतकी भगिनी तृतीय विभक्ति वदतु
यस् भगिनी रमा
न न न रमा न भगिनी भगिनी
संख्यां संख्ये
भगिनी भगिनी तृतीय विभक्तिरूपाणि एव वदतु तृतीय विभक्ति भगिनि
संख्याया संख्याभ्यां संख्याभिः
संख्या संख्यया संख्यया रमया मकार इत्र अत्र ह्रस्व रमा किन्तु रमया संख्यया संख्याया तु न संख्यया
संख्याभ्यां
उत्तमं तदेव सुधा भगिनी चतुर्थी सुधा भगिनी
हां भगिनी संख्यये यौ
न न न रमा रमायै
यै रमायै संख्यायै संख्याभ्यां संख्याभ्यः
उत्तमं तदेव शिवरूपा भगिनी अग्रिमं वदतु
संख्यायाः संख्याभ्यां संख्याभ्यायः संख्याभ्यायः
पुनः पुनः प्रयत्न करोतु भगिनी रमा रमाभ्यः
संख्याभ्यः
संख्याभ्यः उत्तमम् उत्तमं दीपशिखा भगिनी षष्टि वदतु
संख्याया संख्योः
भगिनी रमा रमयोः भवति
रमयोः तु संख्ययोः संख्ययोः एण्ड् संख्यानां
संख्यानाम् उत्तमं भगिनी कविता भगिनी सप्तमी वदतु
संख्यायां संख्ययोः संख्यासु
उत्तमं तदेव वयं कुर्मः सर्वाणि रूपाणि तदेव वयं वदतु कविता भगिनी संख्याः वदतु
एकं द्वे त्रीणि चत्वारि पञ्च षट्
पञ्च
षट् सप्त सप्त अष्ट नव दश
उत्तमम्
धन्यवादः
एतानि पदानि लिङ्गानि किं किम् अस्ति लिङ्गं किम् एतस्य पदस्य सर्वे एतेषां पदानां लिङ्गं किम् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश लिङ्गं किम्
नपुंसकलिङ्गं
कथं जानीमः दीपशिखा भगिनी कथं जानीमः
शब्दमञ्जरी
पुटसङ्ख्या किं
पुटसङ्ख्या 73
केतकी भगिनी संस्कृतभाषायां वदतु 73
त्रिसप्ततिः
उत्तमं सुन्दरमेव त्रिसप्ततिः सप्ततिः इत्युक्ते 70 त्रिसप्ततिः इत्युक्ते 73 उत्तमं त्रिसप्ततिः पुटसङ्ख्या किं दत्तं दीपशिखा भगिनी
मम पुटसङ्ख्या एकं सप्तमी 71
एकसप्ततिः अस्तु वदतु किं दत्तं
संख्याशब्दाः अकारान्त एक शब्द नित्यमेकवचनान्तः
इत्युक्ते किम्
एक शब्द का इसमें इन्होंने पुल्लिंग स्त्रीलिंग और नपुंसक लिंग का रूप दिया है
किंतु तस्य ऊपर एकम दीर्घ पदम दत्तम नित्यमेक वचनांतः इत्युक्ते किम्
नित्यम एकवचनांतः
भगिनी मैं बोलू
हाँ वदतु भगिनी
नित्यम हमेशा एकवचन अंत होता है एक शब्द का
तदेव नित्यम एक वचन अन्तः नित्यं सर्वदा एक वचनान्त क्यों क्योंकि उसका अर्थ ही एक है एक इत्युक्ते एकमेव अस्ति चेत् सर्वदा एक वचनान्तः भवति नित्यमेकवचनान्तः उत्तमम् उत्तमम् अस्य पुटे पुंसि स्त्रियाम् अपि च क्लीबे क्लीबे इत्युक्ते किं
नपुंसकलिङ्ग
क्लीबे ते सर्वे पदानि किं विभक्तिरूपाणि किं पुंसि स्त्रियां क्लीबे
सप्तमी
सप्तमी एव सर्वदा सप्तमी सर्वदा अर्थः संस्कृतभाषायाः पद्धति एव पद्धति किं सर्वदा अर्थः सप्तमी एव ददति
भगिनि भगिनि कैसे एकम एकम का सप्तमी कैसे होगा
नहीं एकम ना भगिनी पुंसि स्त्रियाम् अपि च क्लीबे विभक्तिरूपं किं क्लीबे विभक्तिरूपं किं
सप्तमी
तदेव भगिनि तदेव अहं
वदामि
न न स्त्रियाम् अपि स्त्रीलिङ्गसप्तमी रमायां संख्यायां लतायां सीतायां
भगिनि ओके
शब्दमञ्जर्याम् इति वयं वदामः वारं वारं शब्दमञ्जर्यां संस्कृतभाषायां इत्युक्ते किं भाषामि अधिकारः अधिकारः अस्तु पुंसि अपि पुंलिङ्ग सप्तमी एकवचनरूपम् अस्ति पुंस् पुंस् इति प्रातिपदिकस्य उत्तमम् उत्तमम् अत्र तु दत्तम् एकं केवल क्लीबे अस्ति यदि स्त्रियाम् अस्ति चेत् एका अस्ति यदि पुंसि अस्ति चेत् एकः अस्ति किन्तु अस्य अभ्यासपुस्तके किं दत्तम् एकम् इति दत्तम् एकम् इति नपुंसकलिङ्गं पदम् अस्ति उत्तमं धन्यवादः दीक्षिका भगिनी तदेव द्वे द्वे किं किं शिवरूपा भगिनी द्वे लिङ्गं किं
भगिनी सप्तमञ्जरी मे दोनो हि द्वे द्याय नपुंसकलिङ्गपदम् और स्त्रीलिङ्गपदं का
द्वे
दोनो
हो सकते किन्तु यदि प्रथमशब्दः तु नपुंसकलिङ्गम् अस्ति द्वितीय अपि नपुंसकलिङ्गं प्रायः भवति इति वयं मन्ये न किन्तु द्वे तु स्त्रीलिङ्गपदम् अस्ति अत्र किमपि क्लेशः नास्ति द्वे अस्माकं मनसि स्थापयामि स्थापयामः इति मम प्रयत्न एक बार हम इसको सोचेंगे कि अच्छा एकम है तो ये नपुंसकलिंग ये मन में मैं एक बीज डाल रही हूँ आप हम लोग सबके मन में एकम देख के अपने मन में आएगा अच्छा अच्छा ये शायद नपुंसकलिंग है तो इसके ये विशेषण पदम है ती संख्या हरदम विशेषण होता है उत्तमम सर्वदा संख्या किमपि संख्या विशेषण एव द्वे ओ द्वे बालिके अपि च द्वे पुस्तके पुस्तके तु नपुंसकलिङ्गं पदं बालिके तु स्त्रीलिङ्गपदं लेकिन् द्वे तु समानेव मनसि स्थापयन्तु अस्तु उत्तमम् दीप्षिका न सुधा भगिनी त्रीणि त्रीणि लिङ्गं किम्
त्रीणि
नपुंसकलिङ्गपदम्
एकमेक उदाहरणं वदतु भगिनी, त्रीणि किम्? लघुवाक्यं वदतु भगिनि.
त्रीणि त्रीणि बालकानि.
बालकानि बालक लिङ्गं किं?
नै नै, देट् इस् पुंलिङ्गं, सारि. त्रीणि पुस्तकानि सः.
किञ्चित् चिन्तयतु. स्तः
स्तः
विषये सन्ति. स्तः इत्युक्ते किं?
स्तः द्विवचन.
उत्तमं, तदेव उत्तमं, सुन्दरं. त्रीणि किं पुस्तकानि सन्ति. यदि बालकाः सन्ति तदनन्तरं कथं वदामः? समानेव पुटे दत्तं भगिनि. पुंसि
पुंसि
किं शब्दः कः? शैलजा भगिनी साहाय्यं करोतु. लघुवाक्यं बालकाः योजयाम. वदतु शैलजा भगिनी.
वाट् इस् द क्वश्चन् भगिनी, सोरि.
सुधा भगिनी एकं लघुवाक्यम् उक्तवती. तस्य कः? त्रीणि पुस्तकानि सन्ति. मम प्रश्नः कः? यदि बालकाः सन्ति कथं वदामः?
बालकाः लिखन्ति.
न न न, बालकाः सन्ति.
ऐ थिङ्क् ऐ गाट् इट्.
सुधा भगिनी वदतु.
त्रयः बालकाः सन्ति.
उत्तमं, तदेव त्रयः बालकाः सन्ति. स्त्रीलिङ्ग् अस्ति चेत् भगिनी एकं लघुवाक्यं वदतु. सरोजा भगिनी वदतु, प्रयत्नं करोतु.
फर् द सेम् नेम्बर् भगिनी, त्रीणि.
सेम्.
सोरि, वाट् डु ऐ हाव् टु मेक् भगिनी?
लघुवाक्यं किमपि स्त्रीलिङ्ग् पदस्य योजयामः. महिला इति पदस्य योजयामः एकं लघुवाक्यं.
ओके भगिनि, आम्. त्रीणि महिलाः खादन्ति.
सन्ति शिवरूपा भगिनी वदतु.
तिस्राः महिलाः सन्ति.
तत्तु सत्यं. कथं जानीमः? शिवरूपा भगिनी कृपया शैलजा भगिनीं वदतु, विवृणोतु. कथं जानीमः? विवृणोतु संस्कृतभाषायाम् एव वदतु.
शब्दमञ्जर्यां त्रीणि त्रीणि सङ्ख्याः नपुंसकलिङ्गमस्ति.
किं पुटसङ्ख्या भगिनि?
74
इन् पीडिएफ्. पीडिएफ् मध्ये 74 भगिनि.
यस् यस्, इसमें लिखा है सब.
पीडिएफ 72 भगिनि.
ओके, मेबी यू हैव डिफरेंट.
थैंक यू भगिनि.
स्त्रीणि संख्या नपुंसकलिङ्गम् अस्ति, स्त्रीलिङ्गपाद पादक तिस्त्रः अस्ति, पुंलिङ्गपादक त्रयः अस्ति.
पदकाना भगिनि संस्कृतभाषायां कथं वदामः?
स्त्रीलिङ्गपदचित्रः योजये
कथं वदाम, एकनिमिष कथं वदामः? स्त्री प्रातिपदिकस्य पुंलिङ्गं रूपं त्रयः, स्त्रीलिङ्गं रूपं
तिस्रः, नपुंसकलिङ्गरूपं नपुंसकलिङ्गं रूपं त्रीणि अस्ति.
यदि पुस्तकानि यदि पुस्तकानि सन्ति त्रीणि पुस्तकानि, यदि महिला सन्ति तिस्रः
महिलाः सन्ति,
बालकाः सन्ति त्रयः बालकाः सन्ति.
तदेव उत्तमं, तदेव सुन्दरमेव. धन्यवादः. अस्तु केतकी भगिनी करोतु अग्रिमं. चत्वारि कीदृश पदम्? न न संस्कृतभाषायां वदतु भगिनी, प्रयत्न करोतु संस्कृतभाषायां वदतु. भगिनी आङ्ग्लभाषायां मास्तु.
चत्वारि नपुंसकलिङ्गम् अस्ति, चतुरशब्द प्रतिपादिक अस्ति, चत्वारि
प्रतिपादिक न प्रातिपदिकं, प्रातिपदिकम्
अस्ति, चत्वारि शब्द नपुंसकलिङ्गम् अस्ति.
एकं लघुवाक्यं वदतु, उदाहरणानि.
चत्वारि फलम् अस्ति.
फ तु संस्कृतभाषायाम् एव नास्ति, फकार नास्ति. किं
चत्वारि फलम्?
न, फकार तु संस्कृतभाषायाम् एव नास्ति.
फलं फलं
क्षम्यतां भगिनि, चत्वारि फलम् अस्ति.
फलं किं रूपं भगिनि, पदपरिचय वदतु.
फलं नपुंसकलिङ्गं, फलशब्द
न, फल तु नास्ति भगिनि, फ तु नास्ति. प्रातिपदिकं किं? अस्तु, प्रातिपदिकं किं? फल. प्रथमविभक्तिरूपाणि वदतु.
फलं फले फलानि.
अधुना लघुवाक्यं वदतु, चत्वारि योजयामः.
ओके, चत्वारि वृक्षः.
अरे वृक्ष कथम् आयाति भगिनि, फलमेव वृक्ष कथम् आयाति? न भगिनि, न फल इति फलं फले फलानि. फल इति प्रातिपदिकस्य किमपि रूपं योजयामश्चेत् लघुवाक्यं वदतु.
चत्वारि फलम् अस्ति.
फलानि फलानि, चत्वारि फलानि.
चत्वारि फलानि पतन्ति.
चत्वारि चत्वारि फलानि पतन्ति.
पतञ्जिनि सिम्पल् कीप् इट् सिम्पल् बट् कीप् इट् एक्युरेट् नो नीड् टु एलाबरेट् आल् दीस् डिफ्रेण्ट् वर्ब्स् एण्ड् एव्रिथिङ्ग् नो नीड् ऐ डोण्ट् वाण्ट् अ स्टोरि ऐ वाण्ट् करेक्षन् ऐ वाण्ट् इट् करेक्ट् चत्वारि फलं तु समीचीनं नास्ति चत्वारि फलानि योर् अटेन्शन् शुड् बि आन् देट् नाट् आन् सम् फेन्सि वर्ब् भगिनि रैट् नौ वी आर् डूङ्ग् फण्डमेण्टल्स् ए बि सि डि प्लीस् स्टिक् टु देट् अदर्वैस् युर् ब्रेन् एव्रिबडीस् ब्रेन् इस् वेरि ईज़ी दीस् आर् वृत्तिस् वी लव् वृत्तिस् दे आर् अवर् ड्रामा जो इस्को ड्रामा पूरा पूरा नहीं होता वो भी ड्रामा देखने भी जाता है टिकट खरीद के सो यू हैव टू मिनिमाइज हाँ ना ना चिंता मास्त भगिनी वी हैव टू मिनिमाइज दिस अर्ज दिस डिजायर इज अ डिजायर नो वी ऑल हैव इट आई ऑल्सो भगिनी वी आर ऑल द सेम भगिनी ऑल ऑफ अस आर द सेम सो दिस यू हैव टू सी वेट अ मिनिट द डिजायर इज टू यूज सम न्यू वर्ड नो फर्स्ट यू हैव टू कॉन्कर सिंपल थिंग करेक्टली यू हैव टू से Two, three times you said, Chatwari Phalam. That's my whole question was, please say the Vibhakti, please say the Vibhakti, please. But, see, your attention was focused on new Vrikshaha, new verb. Ativa, Samichinam na Bhagine? Tadeva?
Actually, it is me, Bhagini. I thought like you're asking about Kriya Padam and I have helped her out. Sorry, Ketki Bhagini. Because of me, I think you have to take Shamitam. Shamitam Bhagini. Actually, I did not listen to the word Santi and I thought that we have to use the word, I mean, Kriya Padam. So, Shamitam Ketki Bhagini.
That's true, Bhagini. I wanted to use new word. That's true, Bhagini.
So, see, your attention, you know you have some vocabulary which is correct. Also. The word you used is correct also, not a problem. It's actually completely correct, 100%. But the fundamental itself is wrong.
Yes, Bhagini.
It's like saying I have the perfect bindi, but I got the wrong face or I got the wrong side of the face. I put it behind the head. But the bindi is perfect. What is the point?
No, yes, Bhagini. Kshamedham, Bhagini.
Tadeva. So, keeping attention on what needs to have the attention in the beginning is very important. We are always ready to jump. That is why I keep saying I am proceeding at the slowest rate of any teacher.
Yes, Bhagini.
All the others are so ahead, so far ahead. Actually, yes. I don't feel comfortable going that fast. I'm not comfortable. Even with myself, I'm not comfortable because I am also just learning, Bhagini. We're all learning together only. So,
yes,
but my point is to keep the fundamentals straight. Focus on that. Focus on what needs focus, not on what does not need focus. Tadeva.
Astu.
Tadeva, Bhagini. Chintam astu. Astu. चत्वारि इति एकं नपुंसकलिङ्गं रूपम् अस्ति अस्तु महेश महोदय पञ्च
पञ्च इति पदं पञ्चन् प्रातिपदिकम् अस्ति
नकारान्त
इति पदस्य त्रिषु लिङ्गेषु एकः रूपः अस्ति
एकमेव रूपम्
एकमेकं त्रिषु लिङ्गेषु पञ्च प्रथमविभक्ति रूपम्
उत्तमं पञ्चन् आरब्धे सर्वाणि संख्यापदानि त्रिषु लिङ्गेषु एकमेव रूपं स्वीकुर्वन्ति ओन्लि अप् टिल् फोर् दे हेव् डिफ्रेण्ट् लिङ्गरूपाणि समथिङ्ग् मनसि स्थापयन्तु सर्वे एकं द्वे त्रीणि चत्वारि केवल एते चत्वारः शब्दाः भिन्नभिन्न लिङ्गरूपाणि स्वीकुर्वन्ति, किन्तु पञ्च आरब्धतः पञ्चतः पञ्चसे पाच गिन्ती पाच से पञ्चतः सर्वे त्रिषु लिङ्गेषु एकमेव रूपं स्वीकुर्वन्ति. मनसि सर्वे स्थापयन्तु. कोऽपि प्रश्नः अस्ति अत्र? अस्तु, महेश महोदय वदतु. पृच्छतु भगिनि.
एक प्रश्न, पुट संख्या 73 चत्वारि सप्तम
सप्तम न भगिनी
सप्तति सप्तति सप्तति
सप्तति
सप्तति सप्तति इट इज पञ्चनान्तः षट् शान्तः सप्तनान्तः.
महेश महोदय विवृणोतु महोदय.
नकारान्त पञ्चन् पदं नकारान्तः अन्त अस्ति, इतः नान्तः आवरणे लिखामि लिखति दत्तं
लिखितवती. अस्तु, नान्त इत्युक्ते नकारान्त
नकारान्त
न न अन्त नान्त.
महोदय या तो गीतांजलि भगिनी, केन् यू जस्ट् एक्स्प्लेन् दिस् 1-4 इन् हिन्दी? ऐ मीन् ऐ डिड् गेट् द जिस्ट् आफ् वाट् गीतांजलि भगिनी सेड् बट्
न हिन्दी तु न भगिनी, अहं संस्कृतभाषायां पुनः वदामि. एकं द्वे त्रीणि चत्वारि एतेषां संख्यानाम् इत्युक्ते इन् सारी संख्याओं का केकी षष्टिविभक्ति त्रीणि त्रिषु लिङ्गेषु भिन्नभिन्नरूपाणि सन्ति. पुंलिङ्गरूपम् एकं भिन्नरूपं स्त्रीलिङ्गं रूपम् एकं भिन्नरूपं नपुंसकलिङ्गं रूपम्. एकः एका एक एकम्
सो भगिनी, सो फार् एक्साम्पल् इफ् ऐ एम् लुकिङ्ग् एट् द वर्ड् चतुर मास्क्युलिन्, सो वेन् इट् इस् एक्स्प्लेनिङ्ग् अ नौन् विच् इस् इन् द मास्क्युलिन् फार्म्, सो इट् विल् टेक् देट् पर्टिक्युलर् विभक्ति आल्सो लैक् देट् इफ् इट्स् फार् टू और् इफ् इट्स् फार् फोर्. गोट् इट् नौ ऐ गोट्
1, 2, 3, 4 इट् विल् टेक् दोस् लिङ्गं रूप लिङ्ग देर् लिङ्ग् declensions. But after 5, after 5 onwards, they are all the same. The linga differentiation disappears. That's all.
Okay.
Vibhakti rupani tu santi. Kintu linga bheda nasti.
To ek simple 4, wo agar masculine mein hai, to uske 7 × 3, 21 rupas. Phir agar feminine shabda ko explain kar raha hai, so 7 × 3 another 21 and plus the third set of 21
kintu,
so 21 × 3
kintu bhagini chatura pashyatu rephantah chatur shabdah nityam bahuvachanantah ityukte kim?
Oh, okay, it will always be in the plural only.
कति रूपाणि सन्ति? न सोरि न भगिनी, चिन्ता मास्तु. कति रूपाणि सन्ति चत्वारः पुंलिङ्ग् अस्ति चेत् कति रूपाणि सन्ति?
बहुवचन
अस्तु, किन्तु कति रूपाणि सन्ति? कति इत्युक्ते किम्?
सेवेन्, हौ मेनि विल् फार्म्स् विल् इट् टेक्?
वदतु.
यस्,
कति रूपाणि सन्ति यदि यदि पुंलिङ्ग् पुंलिङ्गे अस्ति कति रूपाणि सन्ति?
सप्त रूपाणि सन्ति.
उत्तमं.
सेवेन् फार्म्स्.
किन्तु सर्वे लिङ्गेषु यदि वयं स्वीकुर्मः तदनन्तरं कति रूपाणि सन्ति?
सोरि, ऐ डिन्ट् फालो दट्.
सर्वे सर्वाणि रूपाणि यदि वयं स्वीकुर्मः चतुर् इति प्रातिपदिकस्य तदनन्तरं कति रूपाणि सन्ति?
ओन्लि 21.
एकविंशतिः. एकविंशतिः भगिनि. 21 इत्युक्ते किम्? एकविंशतिः.
यस् भगिनि, जस्ट् टु डिसैफर् इन् इङ्ग्लिश् इस् अ चालेञ्ज् रैट् नौ. ऐ विल् रीच् देर् टु कम्युनिकेट् इन् संस्कृत.
आं भगिनि, डोण्ट् वरि, ऐ एम् सिम्प्लि कन्वेयिङ्ग् द चालेञ्जेस् ऐ फील् इन् मै क्लास्. I am barely getting the subject and they are like, no, 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 speak only in Sanskrit. And I'm like, oh my God.
No, that's okay. Encouraging, you know, when you...
No, this is the same. But, you know, I recognize that because they forced me, I have learned so much. At that time, I used to feel, my God, please just let me say it. I want to understand the fundamentals. You are moving forward. Let me just do it. Then I understood later, oh, that is why she was saying, this is why it is important. So that is why I have started to recognize the beauty of this paddhati. That is why I am also trying to encourage it. Of course, I allow far more English and Hindi in my class than probably any other teacher. I don't know. Actually, I haven't heard all the recordings, but probably.
Bhagini, within 1 month, we will all learn how to speak in a Sanskrit with the Gita Bhagini.
Right, no chance. 1 month, no, by several years, decades, Bhagini. But that is the process. Don't expect speed. It's not a race. It's not a race. Simply, yeah, you...
I think in some batch taken by the email ID is K. Ramnik, they completed Abhyasa Pustakam and I just read it, I got a smile, I congratulated them in my mind and I said, I'm fine with this speed.
No, they have now started other books. They have started other books. They are telling me this is the curriculum. You follow this afterwards. I'm thinking, oh my God, next year maybe. No, no chance. Because there's no point. Actually, Abhyasa Pustakam, if you do 3-4 times, you'll be speaking beautiful Sanskrit correctly. Enough is there in this book to speak in our simple ways. Simple things that we are talking in class is enough. Most of my conversation, even in my advanced classes, I use words only from Abhyasa Pustakam. I'm telling you honestly. This book has allowed me to learn to speak. Because it gives it so simply, it tells you so simply. This book alone has allowed me to learn to speak. All the other books beyond this are very, very advanced. They don't really lead you by the hand. They simply, they'll write a story, now go figure it out. No, that's like, oh my God, so many unknowns are there. Already now, just in thinking of a new verb, we forget the fundamentals. So we're not ready for that. This will cause more confusion, at least in my pace, in my mind it causes. So I'm teaching in a way that my mind is comfortable. This is the pace that I find comfortable for my own learning. So I'm assuming it helps you because I can only be myself. I cannot pretend to be Lakshmi Bhagini or some other amazing teacher. You know, I'm just who I am. Within my limitation, this is how I teach. That's why I'm enforcing what I
teach. Yes, Bhagini. I am agree with you.
That's all. I mean, I understand I have limitations, but for me, this is how I have found most useful for my kind of a brain. And I think my brain is like an average brain. It's not like genius, it's not amazing, it's not completely dull. It's like an average mind, and this is the pace that I keep. So it works. अस्तु अस्तु पञ्च षट् किं किं वदति केतकी भगिनी वदतु षट्
यस् यस् भगिनी वन् सेकेण्ड् वन् मिनिट्
पञ्च
षट् षट्
षट्
इति अभ्यासपुस्तके किं दत्तं षट् इति दत्तम् अभ्यासपुस्तके किं दत्तं षट् इति पदस्य विषये वदतु प्रातिपदिकं किम् प कथम् आयाति भगिनी प तु नास्ति तत्र
नो 139 पेज् आन् द शब्दमञ्जरी 75 पेज्
actually the print is slightly it has faded the sh that line the cross line sometimes it is it looks as though it is there or it is not there
oh astu astu shakara
it's not very clear
shakara
shakara
so it is shakara and pratipadikam is shanta
pratipadikam
shash shash
दीप्षिका भगिनी वदतु शान्तः इत्युक्ते किम्
शान्तः इस् द is the rupam
bagini
like
bagini page puta sankhya 75 printed 75 shash iti ekam pratipadikam dattam tasya param avarane brackets आवरणे इत्युक्ते अधिकरणम् आवरणे ब्राकेट्स् इन् ब्राकेट्स् शान्तः इति दत्तं शान्तः इत्युक्ते किम् इति मम प्रश्नः पश्यति वा पश्यति वा
पश्यति पश्यति
न पश्यामि
पश्यामि अहं पश्यामि
शान्त इत्युक्ते किं वदतु भगिनि नान्तः पञ्चन् नान्तः दत्तं नान्त इत्युक्ते किं भगिनि
भगिनि
न जानामि केन ट्रै भगिनि
शिवरूपा भगिनी वदतु
शान्तः इत्युक्ते पद अन्ते शाकारस्य अन्तो अस्ति नान्तः इत्युक्ते नासे अन्त अस्ति
भगिनी न उत्तमं भगिनी न अन्ते अस्ति चेत् नकार अन्ते अस्ति चेत् नान्तः शकार अन्ते अस्ति चेत् शान्तः वदतु शिवरूपा भगिनी शिवरूपा भगिनी वदतु
नकार अन्ते अस्ति चेत् नान्तः चकार अन्ते अस्ति चेत् शान्तः
तदेव महेश महोदय पूर्णमेव उक्तवान् सः उक्तवान् एव अस्तु शान्तः इत्युक्ते उत्तमं भगिनी धन्यवादः शश् इत्युक्ते श अन्ते दीप्षिका भगिनी कृपया म्यूट् करोतु भगिनी किञ्चित् ध्वनिः आयाति अस्तु शश् शान्तः उत्तमं वदतु केतकी भगिनी अग्रिमम्
भगिनी वाक्यं वदतु
वदामि वा वाक्यं वदामि वा
वाक्यं वदामि वा
हा लघुवाक्यं भगिनि लघुवाक्यं वदतु
षट् षट् बालकाः सन्ति
इत्युक्ते किं
सिक्स् बालक है बालका है
स्त्रीलिङ्ग् अस्ति चेत् स्त्रीलिङ्ग् अस्ति चेत् वदतु
बालिका देन् षट् आल्सो षट् बालिकाः सन्ति
उत्तमं नपुंसकलिङ्गम् अस्ति चेत्
नपुंसकलिङ्गं सेम् षड्भिः बालिकाः सन्ति
कथं षड्भिः आयाति भगिनि षड्भिः
अत्र नास्ति भगिनि नपुंसकलिङ्गम्
न भगिनि प्रथम तु षट् प्रथमविभक्तिरूपं द्वितीय षट् द्वितीयविभक्तिरूपं तृतीय षट् तृतीयविभक्तिरूपम्
भगिनि अत्र स्त्रीलिङ्ग् न अस्ति नपुंसकलिङ्ग् न अस्ति
अस्तु एकनिमिष अस्तु किं किं वदामः सुधा भगिनी अवगतं वा अत्र किम् अभवत्
आं भगिनि
वदतु केतकी भगिनीं वदतु
सुधा भगिनी
न न न सुधा भगिनी सुधा भगिनी केतकी भगिनीं भगिनीम् इत्युक्ते किं द्वितीयविभक्ति केतकी भगिनी को वदतु बोलो वदतु सुधा भगिनी
षट् इति त्रिषु लिङ्गेषु प्रथमविभक्तिरूपं समानेव
उत्तमम् अपि च पञ्च अपि समानेव पञ्च आरब्धं सर्वे
गीताञ्जलि भगिनी सोरि जब सुधा भगिनी ने बोला तो मन में ऐसा है कि उन्होंने सिक्स का बोला और सिक्सर भी मार दिया सॉरी
उत्तमम् अस्तु अस्तु सो पञ्च पञ्च आरब्धं स्टार्टिङ्ग् पञ्चतः स्टार्टिङ्ग् फ्रम् फैव् आल् नम्बर् किं पुनः वदतु सुधा भगिनी किं
पञ्च आरभ्ये सारे सङ्ख्यायाः त्रिषु लिङ्गेषु रूपाणि त्रिषु
लिङ्गेषु
भवन्ति
समानेव भवन्ति तदेव समानेव भवति इत्युक्ते
भगिनी नपुंसकलिङ्ग् आल्सो षट् ऐ केन् से
समानेव त्रिषु लिङ्गेषु समानेव इत्युक्ते किं तीनो लिङ्गो मे एक ही रूप् तदेव समानेव इत्युक्ते एक ही रूप् है किस्मे रूप् है त्रिषु लिङ्गेषु तीनो लिङ्गो मे समानेव एकमेव रूपम् एक ही रूप् अस्ति है अवगतं वा
अस्तु भगिनि
तदेव
तीनो लिङ्गो मे समानेव विभक्तिरूपाणि तु अलग् होता है
हा विभक्ति तु सेपरेट् किन्तु लिङ्गमेव अस्तु प्रथम सुधा भगिनी भवती एव वदतु षट् इति प्रथमविभक्तिरूपं किम्
षट्
षट् प्रथमविभक्ति इत्युक्ते किम्
प्रथमविभक्ति
इत्युक्ते किम् कोऽपि जानाति वा
प्रथमविभक्ति षट् कर्तृपदम्
सब्जेक्ट् कर्तृप्रदमेव उत्तमं कर्तृप्रदमेव षट् बालिकाः सन्ति न कर्तृपदं षट् बालिकाः गच्छन्ति षट् बालिकाः तिष्ठन्ति तदेव अस्तु शैलजा भगिनी द्वितीयविभक्तिरूपं किं शश् इति प्रातिपदिकस्य
षट् षट् इस् द्वितीयविभक्ति भगिनी
किमपि लघुवाक्यं प्रयत्न करोतु भगिनी एकमेव लघुवाक्यं
षट् षट् बालिकाः सन्ति
सन्ति तु कीदृश क्रियापदं भगिनी कीदृशधातु
स्तः सोरि भगिनी
अकर्मक वा सकर्मक वा
सकर्मक सकर्मक
अस्ति वा एकनिमेष एकनिमेष भगिनी अष्टाध्यायी डाट् काम् गच्छतु भगिनी उद्घाटयन्तु अष्टाध्यायी डाट् काम् अस् धातु टैप् करोतु किं शैलजा भगिनी करोतु भगिनी कीदृशधातु वदतु
वन् मिनिट् भगिनि ऐ हेव् टु टैप् इन् स्पोकन् संस्कृत् फस्ट् नो भगिनि अस्ति
अस् अस् अस्ति किमपि
अस्ति
Bhagini,
you can use lexilocals for typing, Bhagini.
But I feel this one is much, much easier for me, Bhagini. Spoken Sanskrit mein.
Copy-paste, spoken Sanskrit.
Usme se bahut tez lagti
hai. Asti, zero results. One minute, Bhagini, maybe.
Asti has to be in Devanagari, Bhagini. Otherwise, Ashtadhyayi
won't. Yes.
Bhagini, okay. If you just put us, it will give you results, Bhagini.
Okay.
Kidrisha dhatu vayam varam varam iti vishaye charcham kurmaha. Kintu bahu mukhyam, eka vishaya bahu mukhya vishaya asti. Pramukha vishaya eva.
Sorry, Bhagini, maybe.
No.
Asdhatu, Bhagini?
Asdhatu. Latlakar. Pratama Purusha Ekavachanam Parasmaipadi Akarmakpadi. Akarmaka.
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 Akarmaka ityukte kim.
Akarmaka is something like, you know, Kriyapadam and Karmapadam are not together. They're not interrelated. How to explain, Bhagini? Sakarmaka hota hai toh woh judta hai, Kriyapad ke saath Karmapadam, but Akarmaka hota hai toh nahi judta hai.
Judta means hota hi nahi hai. It cannot take.
There is no Karmapadam. No so karma. Then... becomes akarmakriyapadam
aduna iti gnasyamah aduna ekam laghu vakyam vadatu bhagini dvitiya vibhakti rupam asti ayojayama shchet shat dvitiya vibhakti rupam kim ityukte kim dvitiya rupa vibhakti rupam ityukte kim
karma padam
Yeah.
Karma padam eva, not because karma padam. Ityukte karma padam eva. Dvitiya vibhakti ityukte karma padam. Karma padam ityukte kim?
Subject. I mean, object.
Object ityukte kim? Artha kaha?
Karma.
Jis par kaam ka prabhav pade.
Prabhav na. Jis par kriya ho. प्रभाव तो बहुत होता है भगिनी पूरे ब्रह्मांड में जाता है प्रभाव किंतु जिस पर वो क्रिया हो क्रिया जिस पर हो रही हो मैंने सब्जी काटी क्या काटा सब्जी काटी खा का सब्जी काटने का प्रभाव है तो सबको पड़ा ना, तभी तो सब लोग अच्छे हटे करते.
So the subject becomes the object, Bhagini. Is it right?
Subject doesn't become object. There is a subject and there is an object. The two are different. Subject is the doer, is the main noun, is the main. क्या बोलेंगे? कर्त्र एव. Is the main doer. जैसे there is a table. आङ्ग्लभाषायां देर् इस् अ टेबल् टेबल् अत्र सब्जेक्ट् अस्ति. देन् क्लीन् द टेबल् अत्र तु टेबल् कर्मपदम् अस्ति. क्लीन् द टेबल् द एक्ट् आफ् क्लीनिङ्ग् हेपन्स् आन् वाट् द टेबल् टेबल् इस् रिसीविङ्ग् दि एक्षन् जो भी क्रिया को स्वीकारता है जिस पर क्रिया होती है. साफ करने की क्रिया किस पर हो रही है? उत्पीटिका टेबल. उत्पीटिका विल नाउ टेक द्वितीय विभक्ति रूपम. यथा
रिसीवर ऑफ द एक्शन इज द्वितीय.
रिसीवर ऑफ एक्शन इत्युक्ते कर्मपदम. एकम उदाहरणम अहम वदामि. अहम शैलजा भगिनीं वदामि इत्युक्ते किम्? अहं शैलजा भगिनीं वदामि. शैलजा भगिनीम् इति विभक्तिरूपं किम्? द्वितीया इत्युक्ते किम्?
कर्मपदम्.
इत्युक्ते किम्?
शैला भगिनी के साथ.
के साथ? नो, के साथ नो.
शैलजा भगिनी को.
को के साथ ना?
भगिनी को.
भगिनी को मतलब मेरी बोलने की जो क्रिया है वो शैलजा भगिनी पर हो रही है, उन तक पहुंच रही है, उन तक जा रही है, उनको दे रही हूँ मैं ये अपने शब्द.
भगिनी इसमें चतुर्थी भी लॉजिक वाइज बैठता है, मतलब उनके लिए आप उनको और उनके लिए ही तो बोल रहे हो.
उनके साथ भी चलता है कुछ भी आप वो सो वो वाला फॉरगेट ऑल दैट भगिनी. राइट नाउ सिंपली वी आर अंडरस्टैंडिंग व्हाट इज कर्म पद.
ऑल राइट.
व्हाट यू आर सेइंग इज सत्यमेवा. Satyameva. There are many ways to say the same thing, no, in every language. There are many ways, but first you have to understand basics. Dipshika bhagini bhavatyah durvanya kinchi dhvani ayati bhagini. Kripya maaf karo tu. Asu. So, shat. Prathama shat tu kartrapadam. Dvitiya shat atra pustake dattam. Dvitiya shat iti tu karma padam. Tritiya shat kim? महेश महोदय तृतीय षट् किम्? एकं रूपम् अस्ति तृतीय षट्भिः. किम्
तृतीय विभक्ति
इत्युक्ते किम्?
कर्तने कर्म को करण से के द्वारा.
के द्वारा इत्युक्ते किं महोदय?
करण शृणोति वा?
करण इत्युक्ते किं? किन्तु सामान्यभाषायाम् इत्युक्ते किं?
साधन जिसके द्वारा कर्ता काम करे.
साधन माध्यम द्वारा.
It acts as medium of action. That's what it says here, Bhagini. I'm just googling it.
अहं कारयाने कारयालं गच्छामि. कारयानेन अहं किम्? अहं पुस्तकेन वदामि. तत्तु एवं सत्यं न. अहं पुस्तकेन वदामि नो. अहं पुस्तकेन
खलेन लिखामि.
You're teaching us from with the help of books.
हाँ पुस्तकेन पठिष्यामि पाठयामि पाठयामि अहम् किम् अहम् हस्तेन खादामि सरलमेव अहम् हस्तेन खादामि
eating with your with my hands
with my hands by means of hands अहम् मुखेन वदामि मुखेन वदामि अहम् मुखेन वदामि
मुख इज इंस्ट्रूमेंट
अहम् पादाभ्यां चलामि पादाभ्यां चलामि पादाभ्यां इत्युक्ते
फुट
पैर से
पादाभ्यां किम् किम् पादाभ्यां
दो पैर से दो पैर
द्वितीय विभक्ति द्वितीय वचन क्षम्यताम् तृतीय विभक्ति द्विवचने द्विवचने रूपम् पादाभ्यां दो पैरों से चलती हूँ
भगिनी पंचमी आल्सो
आल्सो की बात नहीं हो रही अभी हाउ एल्स कैन यू से इज नॉट द पॉइंट बट यू अंडरस्टैंड व्हाट तृतीय मीन्स दैट्स द पॉइंट
यस
तृतीय इत्युक्ते किम् साधन माध्यम द्वारा तदेव षड्भिः इत्युक्ते किम् महेश महोदय एकं लघु वाक्यं रचयतु
षड्भिः बालकाः षड्भिः पुस्तकाभिः पठन्ति
उत्तमम् इत्युक्ते किम्
बहुत सारे बालक छह पुस्तकों से पढ़ रहे हैं
छह पुस्तकों द्वारा पढ़ रहे हैं के माध्यम से पढ़ रहे हैं
भगिनी एक प्रश्न अस्ति
वदतु
वदामि
वदतु भगिनी
भगिनी ये आई डोंट नो हाउ टू से इन संस्कृत बट दिस ऑल रूप we can use in a three linga
na bhagini ling sarveshu lingeshu ekameva rupam asti
so abhi if we want to use a striling so shadabhyah striling hi aayega
shadbhihi eva
shadbhihi and shadbhyah panchami sab mein aisa hoga
षड्भ्यः तु किं विभक्तिरूपं किं
पञ्चमी
चतुर्थी अपि पञ्चमी षड्भ्यः विभक्ति षण्णाम् इत्युक्ते षष्टि विभक्ति षट्सुः इत्युक्ते सप्तमी विभक्ति
दिस् इफ् ऐ वाण्ट् टु यूस् फार् द स्त्रीलिङ्ग् सो सेम् आयगा सेम् षट्सु महिला
षट्सु महिलाः सन्ति षट्सु पुरुषाः सन्ति षट्सु गृहाणि सन्ति षट्सु पुस्तकानि सन्ति षट्सु बालिकाः सन्ति सरलमेव
अस्तु भगिनि अण्डर्स्टेण्ड् जानामि
अस्तु सो फार् होम्वर्क् गृहपाठरूपेण कृपया षट् सप्त अष्ट नव दश अपि च एकं द्वे त्रीणि चत्वारि पञ्च सर्वे सङ्ख्यायाः शब्दाः शब्दानाम् एकमेकं लघुवाक्यं रचयतु एकमेकं पदस्य परिचयविषये किमपि लिखतु स्पष्टं वा
अस्तु भगिनि
लिङ्गं किं विभक्तिरूपं यदि किमपि अन्यविभक्तिरूपं योजयामश्चेत् विभक्तिरूपं किम् अर्थः कः सर्वे सर्वं लिखामः अस्तु गृहपाठरूपेण स्पष्टं वा
यस् भगिनि
अस्तु महेश कश्यप महोदय कृपया अन्तिम शान्तिपाठ वदतु.
आं भगिनि. ॐ पूर्णमदं पूर्णमिदं पूर्णात् पूर्णमदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवाविशिष्यते. ॐ शान्ति शान्ति शान्तिः. ॐ गुरुभ्यो नमः. हरिः ओम्.
धन्यवादः भगिनि.
धन्यवाद
पूर्णमुदच्छते.
पूर्णमुदच्छते. आम् धन्यवादः भगिनि.
धन्यवादः. नमस्कारः सर्वेभ्यः.
धन्यवादः.
धन्यवादः भगिनि. नमस्कारः.
सुधा भगिनी. Nobody's here.